एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। देशस्य विभिन्नेषु स्थानेषु भीषण वृष्टेः सम्भावना अस्तीत्यतः सावधानताम् अवलम्बितुम् जलवायु वातावरण विज्ञान विभागेन सर्वे अनुरुद्धा वर्तन्ते। वृष्टेः कारणेन सहसा जलविप्लवानाम् दूरापन्नेन सह नदीनाम् जलस्तरस्य वर्धनस्य सम्भावना भवतीत्यतः तटीय क्षेत्रे निवसद्भिर्जनैः अतिरिक्तम् सावधानता अवलम्बनीयेति विभागेन अनुरुद्धम् वर्तते। पर ह्यस्तन दिवसात् जातायाः विरल वृष्टेः कारणेन जलविप्लव भूस्खलनानन्तरम् आराश्रम चत्वारु राजमार्गः पूर्णतः अवरुद्धा वर्तन्ते। प्रहरी प्रधान कार्यालयस्य अनुसारेण संखुवा सभा जनपदे कोशी राजमार्गः, पाँच थरवर्ती मेची राजमार्गः, रसुवा जनपदे पासाङ लामु राजमार्गः, रूकुम पश्चिम जनपदे जाजरकोट डोल्पा भेरी तटीय मार्गश पूर्णतः अवरुद्धा वर्तन्ते। अत्रान्तरे प्रधानमन्त्रिणा केपी शर्मा ओलिना अत्यावश्यक कारण विना दीर्घ दूरीया यात्रा न कर्तुम सुरक्षित स्थानेषु स्थातुञ्च सर्वे देशवासिनो जनः अनुरुद्धा वर्तन्ते। प्रधानमन्त्रिणा ओलिना वर्षायामज विपद घटनातः आत्मानं संरक्षितुम सावधानतया स्थातुमपि सर्वे आहुताः वर्तन्ते। वर्षायामज विपत् प्रतिकार्य नियमन निकायेन वर्षाणाम् समय विद्युतः संचार सेवायाश्च जायमानस्य अवरोधस्य समस्याम् तत्कालम् समाधातुम् नेपाल विद्युत प्राधिकरणम् नेपाल दूर संचार प्राधिकरणञ्च अनुरुद्धे स्तः। नियमन निकायस्य ह्य सिंहप्रासादे सम्पन्नेन तृतीयोपवेशेन वर्षायामावधौ जलविप्लव भूस्खलन जलमग्नतानां भीषण वृष्टेश्च कारणेन जायमानस्य विद्युतः अवरोधस्य संचार प्रणाल्यः अवरोधस्य च समस्याः तत्कालं समाधातुं विद्युत् दूरसंचार प्राधिकरणे अनुरुद्धे स्तः। एवमेव उपवेशेन सम्पूर्ण वर्षावधौ नेपाल दूरसंचार केन्द्रेषु एनसेल दूरसंचार सेवा प्रदायकेषु केन्द्रेषु च नियमित रूपेण विद्युतः आपूर्तिम् सुनिश्चेतुम् विद्युत प्राधिकरणम् अनुरुद्धमस्ति। गताषाढमासस्य चतुर्विंशे दिवसे लेन्दे खोला नद्याम् दूरापन्नस्य जलप्लवस्य कारणेन अवरुद्धे स्याफ्रुवेशी रसुवागढी मार्गे यातायात साधनानि संचालितानि सन्ति। रसुवा जनपदस्य प्रमुख जनपदाधिकारी अर्जुन पौडेलः प्रथमे चरणे ह्य अपराह्ने मार्गः एकपक्षतः संचालितौ स्थिति असूचयत्। जलप्लवस्य कारणेन स्याफ्रुवेशी स्थानात् रसुवागढी स्थानम् यावत् बहुषु स्थलेषु मार्गः क्षतिग्रस्तोऽस्तीत्यतः पुनः मार्ग सञ्चालने एक सप्ताहस्य समयः व्यतीतः। काष्ठमण्डपात् प्रस्थितानि लघुनि यानानि सम्प्रति सरलतया रसुवागढी स्थानम् प्राप्नुवन्तीति गल्छी त्रिशुली रसुवा मार्ग सुधार आयोजनया ज्ञापितम् वर्तते। नेकपा एमाले दलस्य अध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः पूर्व राष्ट्रपतेः विद्याभण्डारिणश्च मध्ये ह्य मेलवार्ता सम्भूता अस्ति। ललितपुरस्य च्यासलवर्तिनी एमाले दलस्य केन्द्रीय कार्यालये अनयोः केवलयोर्द्वयोर्मध्ये वार्ता सम्भूता अस्ति। मेलवार्तायाः अनन्तरं पूर्वराष्ट्रपतिः भण्डारी पत्रकारैः सह भाषमाणा प्रधानमन्त्रिणा एमाले दलस्य अध्यक्षेण च ओलिना सह राष्ट्रिय राजनीतिर्विषये विमृष्टमस्तीति असूचयत्। पूर्व राष्ट्रपतिः भण्डारी आत्मना दल सदस्यता पूर्वमेव नवीकृता अस्तीति सूचितवती। पूर्व राष्ट्रपतिः भण्डारी राजनीतौ आगमनस्य घोषणायाः पूर्वमेव दल सदस्यतायाः नवीकरणं कृतवती अस्ति सूचितवती। एमाले दलस्य सचिवालये उपवेशे पोलिट ब्यूरो निकायस्य च उपवेशे अनेन विषयेण प्रवेश प्राप्तेः पश्चात् ह्य नेतृत्वस्य पूर्व राष्ट्रपतेश्च मध्ये औपचारिकं विमर्शनं सम्भूतमस्ति। नेकपा एमाले दलस्य केन्द्रीय समितेः उपवेशः ललितपुरस्य च्यासलवर्तिनी दल केन्द्रीय कार्यालये अद्यवसति। एमाले दलस्य प्रचार विभाग प्रमुखस्य राजेन्द्र गौतमस्य अनुसारेण उपवेशे विधान संशोधनेन सम्बद्धे प्रस्तावे संघटनात्मक कार्याणां प्रतिवेदनेषु विधान महाधिवेशनस्य पूर्वकार्येषु अन्येषु विषयेषु च विमृक्ष्यते। दलस्य केन्द्रीय समितेः उपवेशे एतत्पूर्वं सचिवालयोपवेशात् पोलिट ब्यूरो निकायाच्च पारितीकृतं विधान संशोधन प्रस्तावं प्रस्तुत्य विमृक्ष्यते इति प्रचार विभाग प्रमुखः गौतमः असूचयत्। विधान संशोधन प्रस्तावे सप्ततेर वर्षाणां वयसः सीमा कार्यकाल द्वयमात्रं कार्यकारी पदे अवस्थानस्य व्यवस्था च अपसारिता वर्तते। एवमेव दले स्थायी समितेः पोलिस ब्यूरो निकायस्य केन्द्रीय समितेश्च त्रयाणां निकायानां व्यवस्था प्रस्ताविता अस्ति। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा निगदति जनतया सह साक्षात् सम्पृक्ता प्रत्यक्ष निर्वाचन प्रणाली अस्तित्यतः तस्या अन्ते समानुपातिक सहभागितायाः व्यवस्था कर्तव्या भवति। सभापतिः देउवाभिदस्य बुढा नीलकण्ठवर्तिनी निवासे ह्य नेपाल मतदातृ अधिकार मञ्चेन निर्वाचन सम्बद्ध विधेः संशोधनाय एकीकरणाय च निर्मिते विधेयके प्रस्तावस्य संशोधनाय अर्पितं ज्ञापनपत्रं गृह्णन् सभापतिः देउवा एवम् अवदत्। प्रतिनिधि सभायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितौ मीडिया काउन्सिल विधेयकम् आधृत्य सैद्धान्तिकं विमर्शनं प्रारब्धमस्ति। समितेः स्तनोपवेशे सांसदः मीडिया काउन्सिल संस्थायाः संचार परिषदः रूपेण व्यवस्थापनं कर्तव्यम्, नागरिकाणां सूचनायाः अधिकारार्थं यथार्थं सूचना सम्प्रेषणं विधातुं संचार माध्यमः प्रोत्साहनीयाश्चेति बलं दत्तवन्तः। उपवेशे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ संचार माध्यमानां स्वनियमनं विधातुं स्वतन्त्रस्य निकायस्य रूपेण मीडिया काउन्सिल संस्थायाः संघटनस्योद्देश्येन च विधेयकमिदम् आनीतम् अस्तीत्यतः अपि पूर्णरूपेण सर्वकारात् भिन्ना न भविष्यति इति समस्पष्टयत्। निर्वाचनायोगेन रूपन्देही जनपदस्य प्रतिनिधिसभायाः तृतीय निर्वाचनक्षेत्रे आगामिनः कार्तिकमासस्य सप्तदशे दिवसे आयोक्ष्यमाणस्य उपनिर्वाचनस्य कार्यक्रमः स्वीकृतोऽस्ति। आयोगस्य सहसचिवस्य नीता पोखरेल अर्याल इत्यस्य अनुसारेण स्वीकृतस्य कार्यक्रमस्य अनुसारेण आगामिनः आश्विनमासस्य एकविंशे दिवसे प्रातः दशवादनात् सायं पञ्चवादनं यावत् निर्वाचनाधिकृतस्य कार्यालये प्रत्याशिता पञ्जीकर्तुं शक्यते। एवमेव आश्विनस्य चतुर्विंशे दिवसे प्रातः दशवादनात् दिवा एकवादनं यावत् प्रत्याशिनां नाम्नः प्रत्यावर्तनाय समयः निर्धारितोऽस्ति। तस्मिन्नेव च दिने दिवा एकवादनात् त्रिवादनं यावत् प्रत्याशिनाम् अन्तिमनामावलिं प्रकाश्य दिवा त्रिवादनात् सायं षड्वादनं यावत् प्रत्याशिभ्यः निर्वाचनचिह्न प्रदानस्य कार्यक्रमो वर्तते। कार्तिकमासस्य सप्तदशे दिवसे प्रातः सप्तवादनात् सायं पञ्चवादनं यावत् सम्बद्धे मतदानकेन्द्रे मतदानं भविष्यति। रूपन्देही जनपदस्य तृतीय निर्वाचनक्षेत्रे प्रतिनिधिसभा सदस्यस्य दीपक बोहरा इत्यस्य गतस्य चैत्रमासस्य ऊनविंशे दिवसे निधनं सम्भूतम् आसीत्। तस्मिन्नेव रिक्ते पदे उपनिर्वाचनं जायमानमस्ति। अस्य वर्षस्य श्रावणमासस्य सोमवासरेषु पशुपतिनाथस्य मन्दिरस्य दर्शनाय समागतानां भक्तजनानां कृते निःशुल्कं यातायात सौविध्यस्य सेवायाः व्यवस्था कृता अस्ति। धार्मिक सांस्कृतिक पत्रकार समाज नेपालस्य नवनिर्वाचित पदाधिकारिभिः कार्यसमितेः सदस्यैश्च सह ह्य पाशुपतक्षेत्रे विहितायाम् अन्तरक्रियायाम् पशुपतिक्षेत्र विकास कोषस्य सदस्य सचिवः सुभाष चन्द्र जोशी निःशुल्कं बसयानस्य संचालनस्य व्यवस्था विहिता अस्ति इति असूचयत्। धर्म संस्कृति सम्बद्ध संस्थायाः यातायात व्यवसाय महासंघस्य च सहयोगेन अद्य श्रावणस्य प्रथम सोमवासरात् एव यातायात सौविध्यं प्रदीयमानमस्ति इति असूचयत् इति समाचारः।